विष्णुगुरुदेव महेश्वर गुरु साक्षात् प्रभुम् तस्मै श्रीगुरवे नमः सर्वेभ्यो नमः सर्वेषां स्वागतमस्ति न्यायवर्गे अस्माकं प्रवर्तमानविषये अस्ति तत्र गुणानां निरूपणं तत्र गुणानां निरूपणे वयं तत्र गन्धरूपरस इत्येषां तत्र निरूपणं कृतवन्तः इदानीं तत्र अग्रे तत्र सङ्ख्यायाः निरूपणं भवति तत्र सङ्ख्या अपि गुणः इति जानीमः तत्र सङ्ख्यायाः निरूपणम् अग्रे भवति तर्हि तत्र आरम्भतः पठामः तत्र तर्हि अस्तु योगेन्द्रमहोदय तत्र गुणनिरूपणे इति तत्र ततः पठति वा महोदय
गुणनिरूपणे क्रमप्राप्तां सङ्ख्यां निरूपयति एकत्वादिव्यवहारहेतुः सङ्ख्या सा नवद्रव्यवृत्तिः एकत्वादिपरार्थपर्यन्ता इति सङ्ख्यायाः प्रभृतिविभागान्ताः गुणाः नवसु अपि द्रव्येषु वर्तन्ते तथा हि द्वित्वादीनां वक्ष्यमाणरीत्या कदाचित्कत्वे अपि एकत्वं सर्वेषु द्रव्येषु सर्वदा भवति एकः घटः एकः आकाशः इत्यादि ज्ञानैः तत्सिद्धिः परिमाणम् अपि तथा तस्य अणुमहत् आदिविभागः ग्रन्थकारणे प्रदर्श्यते सङ्ख्या यावत् एव पृथक्त्वम् एकपृथक्त्वं द्विपृथक्त्वम् इति एवं विधं भवति तत्र द्विपृथक्त्वादीनां कदाचित्कत्वे एकत्वे कदाचित्कत्वे अपि एकपृथक्त्वं सर्वेषु द्रव्येषु भवति
तर्हि तर्हि तत्र किञ्चित् आरम्भे किञ्चित् वदतु महोदय तत्र स्थूलक्षरैः किं लिखितं तावत्पर्यन्तं तत्र गुणनिरूपणे इति आरभ्य पङ्क्तिशः
गुणनिरूपणे क्रमप्राप्तां सङ्ख्यां निरूपयति
हा इत्युक्ते
क्रमप्राप्ताम् इत्युक्ते प्रायः क्रमेण इति प्रायः अस्ति
हा तत्र गुणनिरूपणे नाम गुणानां
निरूपणे
निरूपणम् इति कार्यं तत् कार्यम् इदानीं प्रचलत् अस्ति खलु तत्र पूर्वं वयं किं पठितवन्तः तत्र रूपं कीदृशं रसः कीदृशः इति तेषां तत्र लक्षणवाक्यं सर्वं दृष्टवन्तः खलु इदानीं तत्र गुणानां तत्र आवलिः सप्तमे पुटे अस्ति एकवारं पठतु महोदय तत्र किमस्ति इति
सप्तमे पुटे एकनिमेषः सप्तमे पुटे अस्ति रूपरसगन्धस्पर्शसङ्ख्या परिमाण पृथक्त्वसंयोग विभाग परत्व अपरत्व गुरुत्व द्रवत्व स्नेह शब्द बुद्धि सुख दुःखेच्छा द्वेष प्रयत्न धर्म अधर्म संस्काराः इति चतुर्विंशतिगुणाः
इति चतुर्विंशतिगुणाः पूर्वं वयं रूपं किम् इति दृष्टवन्तः रूपस्य लक्षणवाक्यं दृष्टवन्तः खलु तदनन्तरं क्रमेण रसस्य तदनन्तरं गन्धस्य तदनन्तरं स्पर्शस्य इदानीं स्पर्शस्य अनन्तरं किं भवति
सङ्ख्यायाः क्रम
सङ्ख्यायाः अनन्तरं
सङ्ख्यापरिमाणम् आगच्छति श्रूयते महोदय?
परिमाणस्य अनन्तरं किं कः गुणः क्रमे?
संख्या तदनन्तरं परिमाण आगच्छति, परिमाण इति
गुणम्। तस्य अनन्तरं
पृथक्त्वं
तदनन्तरं संयोगः, तदनन्तरं विभागः।
विभाग
तावत्पर्यन्तं तत्र संख्या, परिमाणं, पृथक्त्वं, संयोगः, विभागः इति अग्रे क्रमः अस्ति खलु? तत्र प्रथमः अस्ति संख्या, प्रथमः गुणः अस्ति संख्या। अतः इदानीं संख्यां निरूपयति, संख्यां निरूपयति कः? निरूपयति लेखकः, नाम तत्र अन्नम्भट्टः मूलग्रन्थे तत्र तर्कसङ्ग्रहे अन्नम्भट्टः निरूपयति, संख्यां निरूपयति।
इदानीं संख्यायाः क्रमः अस्ति, क्रमप्राप्तमस्ति।
क्रमप्राप्तं नाम क्रमेण गच्छामः, तर्हि रूपरसगन्धस्पर्श अनन्तरं संख्यायाः
क्रमः अस्ति।
अतः क्रमेण गच्छामश्चेत् अग्रे संख्या अस्ति, तर्हि संख्यायाः निरूपणं कुर्मः। तर्हि संख्यायाः लक्षणवाक्यं किम् अस्ति?
एकत्वादिव्यवहारहेतुः संख्या,
एकत्वादिव्यवहारहेतुः संख्या। तत्र हेतुः नाम किम्?
व्यवहारहेतु, हेतु इत्युक्ते
कारणम्,
कारणम्।
व्यवहारहेतुः एतादृशं लक्षणवाक्यं वयं दृष्टवन्तः खलु पूर्वमपि। व्यवहारः नाम किं? तत्र अस्तु, तत्र नरसिंहदेव महोदय अग्रे भवानेव किञ्चित् वदतु। तत्र एकत्वादिव्यवहारहेतुः संख्या इति तस्य
किञ्चित् ज्ञानजनकशब्दप्रयोगः, तादृशं शब्दः
व्यवहारः इत्युक्ते ज्ञानजनकशब्दप्रयोगः। समीचीनं, तस्य
तस्य हेतुः इत्युक्ते
कारणमस्ति संख्या। किमर्थं तादृशं वदामः? यतोहि यदि संख्या नास्ति चेत् तत्र
वयं तादृशं वक्तुं न शक्नुमः,
न वक्तुं शक्नुमः। एकत्वम् इति एकः इति एकः वृक्षः इति तत्र अर्थः अपि किमपि अर्थः न भवति, ज्ञानं न न भवति। अतः ज्ञानस्य कारणं तत्र ज्ञानजनक, तत्र व्यवहारेण तत्र शब्दप्रयोगेन ज्ञानं भवति, किन्तु व्यवहारस्य कारणमस्ति संख्या इति गुणः। समीचीनम्, अग्रे सा संख्या
सा नवद्रव्यवृत्तिः,
सा संख्या नवद्रव्यवृत्तिः नाम संख्या नवद्रव्येषु वर्तते। समीचीनं वा तत्?
नवद्रव्येषु वर्तते,
तत्र नवद्रव्याणि कानि?
नवद्रव्याणि
पृथ्वी, आकाश, पृथ्वी, जल, तेज,
पृथ्वी, आप, तेज, वायु, आकाश, काल, दीक, आत्मा, मनांसि, नैव एव।
तर्हि तत्र पृथिव्यां संख्या भवति खलु, तत्र एकः घटः इति वक्तुं शक्नुमः खलु। तत्र जलस्य अपि तादृशं वक्तुं शक्नुमः, तेजसः अपि तादृशप्रयोगः भवति खलु। तर्हि सर्वत्र संख्या इति गुणः वर्तते खलु।
संख्या इति वर्तते सर्वेषु द्रव्येषु
वर्तते, किन्तु रूपम् इति गुणः सर्वत्र न वर्तते खलु।
रूपम् इति गुणं सर्वत्र न वर्तते प्राय,
किन्तु संख्या इति गुणः सर्वत्र वर्तते। रसः इति गुणः सर्वत्र न वर्तते, किन्तु संख्या इति गुणः नवद्रव्येषु वर्तते. अतः सा सङ्ख्या नवद्रव्यवृत्तिः, नवद्रव्येषु वर्तते. अग्रे
एकत्वादि परार्धपर्यन्ता.
हा एकत्वादि
परार्थपर्यन्ता
नाम एकत्वं
परार्थपर्यन्ता अस्ति.
हा पर्यन्ता नाम परार्ध इति तत्र अन्तिमसङ्ख्या इति स्वीकृतं नाम तत्र तत्र बृहती सङ्ख्या इति. तत्र यदि न जानाति महोदय चिन्ता मास्तु, किन्तु तत्र वयं जानीमः खलु तत्र किं शतम् इति वदामः, तदनन्तरं किम् अस्ति तत्र दश दशसङ्ख्यया यदि गुणं कुर्मः तर्हि नाम दश गुणदश भवति शतं, तदनन्तरं
सहस्र,
हा तदनन्तरं
लक्षं,
तत्र अयुत इति वदन्ति दश सहस्र अयुत, तदनन्तरं तत्र लक्षः.
आचार्यसूत्रमस्ति तस्य.
हा वदतु भगिनि, जानाति चेत् वदतु भगिनि.
एकदशशतसहस्रायुत लक्षप्रयुतकोटयः क्रमशः अर्बुदमब्जं खर्वनिखर्व महापद्म शङ्कवस्तस्मात् जलधिश्चान्त्यं मध्यं परार्धमिति दशगुणोत्तराः संज्ञाः सङ्ख्यायाः स्थानानां व्यवहारार्थं कृताः पूर्वैः इति.
धन्यवादः भगिनि, धन्यवादः भगिनि. यदि भवती तत्र एतं श्लोकं प्रेषयति चेत् बहु सहायकं भवति भगिनि.
आम् अस्मिन् श्लोके अपि भास्कराचार्य क्रमश इति प्रयोगं
हा यतोहि तत्र दश दश दशस्य गुणेन किं किं भवति इति क्रमेण. समीचीनं भगिनि. हा तर्हि परार्धः इति तत्र एका सङ्ख्या अस्ति, बृहान् सङ्ख्या नाम तत्र परार्धे तत्र कति तत्र प्रायश तत्र किं नव अष्टादश न सप्तदश शून्याः सन्ति तेषु एक तदनन्तरं शून्यं शून्यं शून्यम् इति तत्र प्रायशः सप्तदश शून्याः सन्ति इति मन्ये. तादृशं नाम परार्ध इति सङ्ख्या तत्र लक्षं कोटि तदनन्तरं खर्व निखर्व शङ्कु जल अन्त्य मध्य तर तदनन्तरं पराद तदनन्तरं परा इति भवति. पराद नाम परस्य अर्ध, परा इति तत्र प्रायशः तत्र ब्रह्मस्य ब्रह्मणः तत्र समयः इति तदपि भवति इति मन्ये. किमपि तत्र सम्बन्धः वर्तते सम्यक् न जानामि, किन्तु परार्धं परार्धपर्यन्त इति तत्र सङ्ख्यायाः तत्र आवलिः तावदेव. अस्तु योगेन्द्र महोदय धन्यवादः. नीता भगिनी नमस्कारः.
नमस्कारः.
नमस्कारः भगिनि. अस्तु इदानीम् अग्रे नरसिंहगिरौ मध्ये इदानीम् अग्रे तत्र सङ्ख्यायाः इति प्रवृत्ति तद् किञ्चित् पठित्वा विवृणति वा.
आम् महोदय. सङ्ख्यायाः प्रवृत्ति विभागान्ताः गुणाः नवसु अपि द्रव्येषु वर्तन्ते, तथा हि द्वित्वादीनां वक्ष्यमाणरीत्या कदाचित् कत्वे अपि एकत्वं सर्वेषु द्रव्येषु सर्वदा भवति. एको घटः एकः आकाशः इत्यादि ज्ञानै तत्सिद्धिः. परिमाणमपि तथा, तस्य अणुमहदादिविभागः ग्रन्थकारेण प्रदर्श्यते. सङ्ख्यावदेव पृथक्त्वम् एकपृथक्त्वं द्विपृथक्त्वम् इत्येवं विधं भवति. तत्र द्विपृथक्त्वादीनां कदाचित्कत्वे अपि एकपृथक्त्वं सर्वेषु द्रव्येषु भवति. सङ्ख्यायाः प्रभृति विभागान्ताः गुणाः नवसु इत्युक्ते सङ्ख्या आरभ्य विभागपर्यन्तं ये गुणाः सन्ति ते नवषु अपि द्रव्येषु वर्तन्ते.
हा समीचीनं. नाम तत्र तत्र आवलिः तत्र पूर्वं योगेन्द्रमहोदयेन पठिता आसीत् आवलिः. तत्र सङ्ख्यायाः अनन्तरं किं भवति? परिमाणं.
परिमाणं संयोग विभागः.
पृथक्त्वं. पृथक्त्वं संयोगः विभागः.
पञ्च. पञ्चगुणः.
सङ्ख्या, परिमाणं, पृथक्त्वं, संयोगः, विभागः. सत्यं महोदय.
एषां नवद्रव्यवृत्तिः भवति. नवे द्रव्येषु अपि वर्तन्ते.
नाम तत्र सङ्ख्या नवसु द्रव्येषु वर्तते, परिमाणमपि तादृशं, पृथक्त्वं, संयोगः अपि, विभागः अपि इति. अस्तु अग्रे.
तथा हि द्वित्वादीनाम् इत्युक्ते द्वित्व इत्युक्ते एकं सङ्ख्या. इदानीं सङ्ख्या वयं पठे पठामः. तत्र एकत्वं द्वित्वम् इति आगच्छति. द्वित्वादीनां वक्षमाणरीत्या कदा कादाचित् कत्वे अपि एकत्वं सर्वेषु द्रव्येषु सर्वदा भवति. तर्हि वयं वदामः द्वित्वं, परन्तु तत्र एकत्वम् इति भवति इति. तत्र द्वित्वे एकत्वम् एकत्वं मिलित्वा एव द्वित्वं भवति इति. तादृशः
नाम तत्र अन्तिमभागः एकत्वं सर्वेषु द्रव्येषु सर्वदा
भवति.
भवति नाम एकं पुस्तकम् इति, एकः वृक्षः इति. तत्र नाम एकः वृक्षः इति यद् वदामः, तर्हि वृक्षे सङ्ख्या इति गुणः वर्तते इति जानीमः खलु. नाम एकत्वम् इति विधसङ्ख्या रूपगुणः वृक्षे वर्तते.
वर्तते. आम्
वर्तते. तर्हि तत्र यत्किमपि स्वीकुर्मः तत्र एकत्वं, किमपि एकं स्वीकुर्मश्चेत् तत्र एकत्वं निश्चयेन भवति खलु.
निश्चयेन भवति.
किन्तु
अग्रे वक्ष्यमाण
द्वित्वं, तत्र द्वित्वम् इति विषये अग्रे वक्ष्यमाणः अस्ति. अतः तत्र किन्तु द्वित्वं सर्वत्र भवति वा? द्वित्वं
द्वित्वं सर्वत्र न भवति.
सर्वत्र न भवति खलु. नाम तत्र पुस्तकद्वयम् इति यत्र भवति तत्र द्वित्वम् अस्ति, अथवा वृक्षद्वयम् अस्ति चेत् तत्र द्वित्वम् अस्ति. किन्तु द्वित्वं सर्वत्र न भवति खलु.
सर्वत्र न भवति इति कृत्वा अत्र कादाचित् कत्वे इति शब्दप्रयोगः कृतवान्.
कादाचित् कत्वे इत्युक्ते किं?
कदा कदा भवति, कदा कदा न भवितुम् अर्हति.
हा किन्तु कादाचित् कत्वे नाम तत्र कदाचित् इति अस्ति खलु.
कदाचित् तस्य भावः.
तस्य भावः समीचीनं महोदय. तावदेव. कदाचित् भवति तत्र सर्वत्र एकं पुस्तकम् एकः वृक्षः तत्तु सर्वत्र भवति. किन्तु द्वे पुस्तके अथवा तत्र द्वौ वृक्षौ इति कदाचिदेव भवति खलु. अतः द्वित्वस्य कदाचित् कत्वम् अस्ति खलु. द्वित्वम् इति कदाचिदेव भवति खलु. द्वित्वं कदाचिदेव भवति इत्युक्ते तर्हि तत्र यथा तत्र बालक तत्र वृक्षः उन्नतः इत्युक्ते तत्र भावः औन्नत्यम् इति भावः बालके अस्ति. तथैव द्वित्वं कदाचित् भवति इत्युक्ते द्वित्वे कदाचित्कत्वं भवति खलु. अतः द्वित्वादीनां कदाचित्कत्वे अस्ति, तथापि एकत्वं तु सर्वत्र भवति. नाम तत्र आकाशे द्वित्वम् अस्ति इति न वक्तुं शक्नुमः, यतोहि एकः एव आकाशः.
एकः एव आकाशः.
अतः तत्र कदाचित् द्वित्वं भवति, त्रित्वं भवति, किन्तु सर्वत्र सर्वेषु द्रव्येषु एकत्वं तु भवति एव.
द्वे घटे इति वदामः चेदपि तत्र एकघट एकघट मिलित्वा एव घटद्वयं भवति.
द्वौ घटौ इति सत्यं.
रोगटौ
हा इति सत्यं हा अतः तत्र कदाचित् एव तादृशी स्थितिः भवति सर्वदा न भवति इति कृत्वा द्वित्वं कदाचित् भवति अतः तस्मिन् अथवा तस्य कदाचित् कत्वम् अस्ति तथापि एकत्वं सर्वत्र अस्ति अग्रे एको घटः
उदाहरणं दत्तमस्ति एको घटः एकः आकाशः इत्यादि ज्ञानैः तत्सिद्धिः यदि वयं वदामः एकः घटः अस्ति एकः आकाशः अस्ति एतत् ज्ञानं सिद्धं भवति एकम् इति सर्वत्र अस्ति इति ज्ञानम्
ज्ञानं सिद्धं न भवति किन्तु ज्ञानैः किं सिद्धः भवति
एकत्वं सर्वदा भवति इति सिद्धम्
इति हा समीचीनं महोदय इति तस्य सिद्धिः भवति तत् सः सिद्धः भवति सङ्ख्या एकत्वम् इति सङ्ख्या सर्वत्र सर्वेषु द्रव्येषु सर्वदा वर्तते इति तस्य सिद्धिः भवति अस्तु इदानीम् अग्रे
परिणामपि
अत्र
सर्वद्रव्येषु परिमाणमपि सर्वद्रव्येषु वर्तते तथा इत्युक्ते तदपि
वर्तते
तस्य अणुमहदादिविभागः इत्युक्ते तस्य इत्युक्ते परिमाणस्य अणुमहत् इति विभागः ग्रन्थकारेण प्रदर्श्यते तत् परिणामे तत्र परिमाणं महत् परिमाणं तादृशं विभागः अस्ति इति ग्रन्थकारेण प्रदर्श्यते
वयमपि तस्य विषये किञ्चित् चर्चितवन्तः खलु तत्र परमाणवः मध्यमपरिमाणं परममहत् परिमाणम् इति एतत् सर्वं दृष्टवन्तः खलु
अणुपरिमाणं तादृशं
मध्यमपरिमाणं परममहत् परिमाणम् इति दृष्टवन्तः खलु पूर्वं अतः तत्र
सङ्ख्या
तत्र विभागः वर्तते किन्तु सर्वत्र परिमाणं तु नाम यत्किमपि द्रव्यं स्वीकुर्मः तत्र तस्य परिमाणं किम् इति प्रश्नस्य उत्तरम् अस्ति एव खलु तर्हि परिमाणम् इति गुणः नवसु द्रव्येषु वर्तते अग्रे
सङ्ख्यावदेव पृथक्त्वम् एकपृथक्त्वं द्विपृथक्त्वम् इत्येवं विधं भवति यथा सङ्ख्या भवति तादृशमेव अन्यगुणः पृथक्त्वम् इति गुणमस्ति तत्रापि एकपृथक्त्वं द्विपृथक्त्वम् इति तादृशं भवति
तत्र पृथक्त्वम् इत्युक्ते तत्र आकाशः अपि पुस्तकम् आकाशः पुस्तकात् पृथक् अस्ति खलु नाम भिन्नः अस्ति आकाशः पुस्तकं नास्ति खलु तर्हि पृथक् नाम भेदः आकाशः पृथक् अस्ति पुस्तकात् पृथक् अस्ति तर्हि आकाशे पृथक्त्वम् अस्ति महोदय इदानीं तत्र पुस्तकम् इति स्वीकुर्मः तत्र पुस्तकं तत्र चषकः नास्ति इति कृत्वा पुस्तके अपि पृथक्त्वम् अस्ति खलु
आमामस्ति
इदानीं पुस्तकद्वयमस्ति प्रथमे पुस्तके अपि पृथक्त्वम् अस्ति द्वितीयपुस्तके अपि पृथक्त्वम् अस्ति तर्हि तत्र द्विपृथक्त्वं भवति यतोहि तत्र प्रत्येकस्मिन् चषके अप्रत्येकस्मिन् पुस्तके पृथक्त्वम् अस्ति इति कृत्वा तत्र पृथक्त्वद्वयमस्ति अथवा द्विपृथक्त्वं वर्तते अतः एतादृशविधं भवति तत्र पृथक्त्वस्य अपि तत्र एकम् अस्ति वा द्वि अस्ति वा इति तत्र तादृशवर्णनं कर्तुं शक्नुमः अग्रे
तत्र द्वित्वपृथक्त्वादीनां कदाचित्कत्वे अपि एकपृथक्त्वं सर्वेषु द्रव्येषु भवति यदा एकत्वं तत्र सर्वेषु भवति एकपृथक्त्वमपि सर्वेषु भवति
नाम उदाहरणार्थं तत्र यदि वयम् आकाशः स्वीकुर्मः तत्र आकाशे द्विपृथक्त्वं तत्र कथं भवति इति प्रदर्शनार्थं किं वक्तुं शक्नुमः उदाहरणं ददाति वा
अन्यद्रव्यं स्वीकुर्मः तेन आकाशे पृथक्
तत्र पुस्तकम् इति स्वीकृत्य आकाशे प्रथमविधपृथक्त्वम् अस्ति, एकपृथक्त्वम् अस्ति, आकाशः तत्र सरोवरः नास्ति, तर्हि
द्विपृथक्त्वम्
द्विपृथक्त्वं प्रदर्शितमस्ति आकाशे इति, तावदेव। किन्तु सर्वत्र सर्वदा एकपृथक्त्वं तु वर्तते एव इति अस्ति। समीचीनं, धन्यवादः महोदय।
धन्यवादः।
अस्तु, इदानीम् अग्रे सरामः। तर्हि चन्द्रमती भगिनी अग्रे पठति वा? एतावत् कोऽपि प्रश्नः? तत्र सर्वे अवगच्छन्ति वा? तत्र नाम सङ्ख्यायाः विभागाः सन्ति, किन्तु एकत्वं सर्वत्र भवति, द्वित्वम् इत्यादि सर्वत्र न भवति, कदाचित् एव भवति। परिमाणः नवसु द्रव्येषु वर्तते, तस्य विभागः अणुपरिमाणं, मध्यमपरिमाणम् इत्यादि अस्ति इति वयं पूर्वं दृष्टवन्तः। सङ्ख्या यथा अस्ति तथैव पृथक्त्वम् अस्ति, एकपृथक्त्वं द्विपृथक्त्वम् इति। द्विपृथक्त्वादि यथा द्वित्वं कदाचित् एव भवति, तथैव पृथक्त्वं द्विपृथक्त्वम् इत्यादि कदाचित् एव भवति, किन्तु एकपृथक्त्वं सर्वेषु द्रव्येषु भवति इति। एतावत् अस्मिन् परिच्छेदे एषः विषयः प्रदर्शितः अस्ति। अस्तु, इदानीम् अग्रे सरामः। चन्द्रमती भगिनी अग्रे।
संयोगः प्रसिद्धः, सः च प्रायः क्रियाजन्यः। आकाशादिद्रव्याणां विभूतत्वात् क्रिया न भवति इति प्राक् निरूपितम्, परन्तु खडादिमूर्तेषु उत्पद्यमानया क्रियया आकाशादौ संयोगः जायते। विभागोऽपि संयोगनाशको गुणः इति लक्ष्यते। तस्यापि विभुद्रव्येषु मूर्तसमवेदक्रियया उत्पत्तिः भवति, आहत्य च नवसु द्रव्येषु एते भवन्ति इति ते साधारणगुणाः इति प्रसिद्धाः। संयोगः प्रसिद्धः, संयोगः इति गुणः प्रसिद्धः, सः च प्रायः क्रियाजन्यः।
संयोगस्य उदाहरणं ददातु।
हस्तभिद्योः संयोगः,
संयोगः समीचीनं। नमस्कारसमये हस्तयोः अथवा नमस्कारसमये हस्तयोः संयोगः समीचीनं। समीचीनं, अतः संयोगः प्रसिद्धः।
क्रियाया जन्यमेव संयोगः,
साधारणतया क्रियाजन्यः एव भवति संयोगः, समीचीनम्।
आकाशादिद्रव्याणां विभुत्वात् क्रिया न भवति प्राक् निरूपितम्। आकाशे इति नवद्रव्येषु आकाशादि द्रव्येषु आकाशम् अनन्तरं विद्युत्वात् क्रिया न भवति प्राक् पूर्वं वयं दृष्टवन्तः विभुत्वात् अत्र क्रिया न भवति इति।
तत्र विभुद्रव्याणि कानि स्मरति वा? आकाशः इति विभुद्रव्यं, दिक् कालः,
काल आत्मा, मनः,
मनः नास्ति इति मन्ये खलु? मनः इति तत्र अणुपरिमाणमस्ति इति चिन्तनं तत्र।
मनः तु पञ्चमूर्तद्रव्याणि मध्ये अन्तर्भूतः।
तत्र विभुद्रव्यं नास्ति, मनः विभुद्रव्यं नास्ति, मूर्तद्रव्यम् अस्ति, किन्तु तत्र आकाशः,
कालः,
दिक्,
आत्मा, आकाशः,
आकाशः। अतः तत्र विभुद्रव्यम् इत्युक्ते तत्र सर्वमूर्तद्रव्यसंयोगत्वं, संयुक्तत्वं तेषु वर्तते। मूर्तद्रव्यं नाम यस्मिन् क्रिया भवितुम् अर्हति, किन्तु तत्र विभुद्रव्येषु क्रिया न भवति एव, क्रिया न भवति इति अपि वयं निरूपितवन्तः। अतः एव तत्र विभुद्रव्याणां तत्र क्रिया न भवति। अस्तु,
परन्तु खडादिमूर्तेषु उत्पद्यमानया क्रियया आकाशादौ संयोगः जायते। खडं मूर्तद्रव्यं खडं पृथ्वी सर्वं मूर्तद्रव्यम् उत्पद्यमानया क्रियया तत्र क्रिया अपि उत्पद्यते मूर्तद्रव्यम् अस्ति अतः
क्रियायाः उत्पत्तिः भवितुमर्हति।
तादृशक्रियया आकाशादौ संयोगः भवति। खडादि मूर्तद्रव्यम् उत्पत्तिमानः अस्ति, तेषां क्रिया अपि वर्तते, तादृशक्रियया आकाशकाल दिक् आत्मा तादृश अमूर्त विभु द्रव्येषु संयोगः वर्तते,
संयोगः भवति द्रव्यैः, द्रव्यैः सह संयोगः भवति। नाम तत्र किम् अस्ति, तत्र
अत्र एकः स्थलः अस्ति चेत् तस्मिन् अपि आकाशः
उत्तमं भवति, तत्र आकाशेन संयुक्तः अस्ति घटः। इदानीं यदि वयं तत्र नयामः घटं, यः घटः अस्ति अस्मिन् प्रकोष्ठे
एकस्मिन् काले निर्माणं भवति, तस्मिन् काले संयोगः भवति।
सत्यं भगिनि, अतः तत्र अथवा अन्यस्मिन् प्रकोष्ठे नयामश्चेदपि तत्र संयोगः अन्यः नूतनसंयोगः भवति आकाशेन सह, अतः संयोगः जायते क्रियया संयोगः।
दिशया तादृशसंयोगः भवति एकस्मिन् दिशायां पापे
दिशि एकस्यां दिशि अपि तत्र संयोगः भवति। क्रियया एतत् सर्वं संयोगः जायते मूर्तद्रव्याणाम्। अग्रे
विभागः अपि संयोगनाशकः गुणः इति लक्ष्यते। संयोगनाशकः गुणः विभागः इति एकं गुणम् अत्र अस्ति, तदपि संयोगनाशकः गुणः इति लक्ष्यते। विभागं भवति चेत् संयोगस्य नाशं भवति।
अतः विभागः
इत्युक्तः
विभागः नाम यत्र संयोगः अस्ति संयोगस्य नाशः विभागेन भवति, अतः तत्र विभागः संयोगस्य नाशकः तादृशगुणः इति अग्रे तस्य लक्षणं दीयते, अतः लक्ष्यते इति लक्ष्यते। एतावत् न कृतवन्तः विभागः इति, किन्तु अग्रे तस्य विवरणं लक्षणवाक्यं सर्वं दीयते, किन्तु एतावत् लक्षणवाक्यं कीदृशं भवति, संयोगनाशकः
विभागः संयोगनाशकः गुणः विभागः
इति भवति। अग्रे
तस्यापि विभुद्रव्येषु मूर्तसमवेदक्रियया उत्पत्तिः भवति। विभागः
विभागस्य समीचीनं, विभागस्य अपि
विभुद्रव्येषु मूर्त समवेदक्रियया उत्पत्तिः भवति। विभुद्रव्येषु इत्युक्ते आकाशः कालः तादृशं, तेषु मूर्तसमवेदक्रियया उत्पत्तिः भवति। इदानीं वयं दृष्टवन्तः मूर्तद्रव्यस्य कारणेन क्रिया तद् क्रियावत् अस्ति, तत्कारणेन विभुद्रव्येषु अपि संयोगः संयोगरूपेण
इदानीं विभागः यथा तत्र संयोगः कीदृशः संयोगः तत्र क्रियया जन्यः क्रियाजन्यः आसीत् खलु संयोगः भवती पठितवती खलु तत्र द्वितीयवाक्यं संयोगः प्रसिद्धः स च प्रायः क्रियाजन्यः खलु भवती पठितवती खलु किन्तु भवती पठितवती खलु संयोगः क्रियाजन्यः इति तथैव विभागः अपि प्रायशः क्रियाजन्यः तर्हि उदाहरणं स्वीकुर्मः तत्र घटः अस्ति अत्र अत्र घटः अस्ति
कुदलौ संयोगः भवति
हा तर्हि तत्र इदानीम् अस्तु भूतलेन सह तस्य संयोगः वर्तते इदानीं यदि घटं
तन्तौ स्थापयति चेत् पटे
अन्यत्र अन्यत्र नयामः चेत् तत्र इदानीम् अत्र अस्ति घटः इदानीं तर्हि तत्र किम् अभवत् तत्र विभागः तत्र इदानीं घटः
विभागः अभवत्
हा तर्हि इदानीम् अत्र किमस्ति संयोगः यः आसीत् इदानीं सः संयोगः नास्ति खलु
अन्यत्र अस्ति
न किन्तु अत्र संयोगः संयोगः आसीत् संयोगः नष्टः
विभागः अभवत्
विभागः इति नास्ति किन्तु संयोगः नष्टः खलु संयोगः नष्टः खलु अतः संयोगनाशकः इदानीं विभागः तत्र तयोः विभागः जातः संयोगः नष्टः अभवत् अतः भूतलघटभूतलयोः संयोगः यः आसीत् इदानीं सः संयोगः नष्टः तयोः विभागः अभवत् इदानीं घटः अन्यत्र वर्तते अतः तत्र तस्यापि नाम
विभागः अपि मूर्तद्रव्यक्रियया मूर्तद्रव्येषु वर्तमानं क्रियया उत्पद्यते
विभागः उत्पत्ति भवति नाम जन्यः
विभागः
विभागस्य जन्यः क्रियाजन्यः अस्ति विभागः
क्रियाजन्यः
अस्ति अपि तत्र अपि इति किमर्थम् उक्तम् इत्युक्ते यथा संयोगः
पूर्वं वयं संयोगं वयं दृष्टवन्तः तादृशमपि क्रिया विभागस्य अपि मूर्तजन्यक्रियया उत्पत्तिः भवति
समीचीनं भगिनि यथा संयोगः तथा एव विभागः इति हा समीचीनम् अपि समवेतक्रियया इत्युक्ते अर्थः कः मूर्तसमवेतक्रियया
तस्मिन् क्रिया क्रियागतोः तादात्म्यसम्बन्धेन वर्तते तदेव समवेत
क्रिया क्रियावतोः सम्बन्धः कः
क्रिया क्रियावतोः समवायसम्बन्धः
हा उत्तमं हा तर्हि यदि तत्र क्रिया वर्तते चेत् क्रिया घटे केन सम्बन्धेन वर्तते
समवायसम्बन्धेन
तर्हि तदा वयं किं वदामः तत्र घटः समवायी इति वदामः क्रिया
समवायीकारणं
किन्तु घटः क्रियासमवायी किन्तु क्रिया का अस्ति क्रिया कीदृशी इत्युक्ते घटसमवेत समवायसम्बन्धेन क्रिया अस्ति इति कृत्वा सा क्रिया समवेता अस्ति समवेतक्रिया अस्ति घटसमवेता क्रिया भवति समवेत नाम समवायसम्बन्धेन वर्तते आदेयः समवायसम्बन्धेन यः आदेयः अस्ति सः समवेतः आधारः भवति समवायी तर्हि तत्र हा तर्हि तत्र यत्र कुत्रापि तत्र सम्बन्धः अस्ति, तत्र समवायः इति सम्बन्धः अस्ति चेत् तत्र आधारः किं भवति? समवायी, अपि आदेयः भवति समवेतः। तत्र दृश्यते वा यत् मया लिखितम्? तर्हि आदेयः समवेतः, आधारः समवायी, समवायिनी इत्यादि भवति। अत्र समवेता क्रिया आदेयः अस्ति, तस्य क्रियया उत्पत्तिः भवति विभागस्य। अस्तु, अग्रे।
आहत्य च नवसु द्रव्येषु एते भवन्ति इति ते साधारणगुणाः इति प्रसिद्धाः।
तर्हि तत्र
आहत्य एतत् कारणेन एव च नवसु द्रव्येषु एते भवन्ति एते इति ते साधारणगुणाः इति प्रसिद्धाः। एते संयोगः विभागः अस्ति वा? एते
तर्हि वचनं किम् इति प्रश्नः भवत्याः खलु? एते इति पदस्य वचनं
स्त्रीलिङ्गद्विवचनं वा?
न न, तत्र प्रसिद्धाः इति अपि अस्ति, भवन्ति
प्रसिद्धाः भवन्ति, किं
वचनं किं
पुल्लिङ्गः नास्ति चेत्
गुणाः इति अस्ति, तर्हि तत्र वचनं किं?
बहुवचनमेव।
बहुवचनमेव, बहुवचनं नाम नाम यत्र नवसु द्रव्येषु वर्तन्ते, नवसु द्रव्येषु वर्तन्ते सङ्ख्या, सङ्ख्या, सङ्ख्या नवसु द्रव्येषु वर्तते वा? सङ्ख्या
वर्तते सर्वत्र वर्तते।
परिमाणं?
परिमाणं सर्वत्र न, परिमाणमपि सर्वत्र वर्तते,
सर्वत्र वर्तते। पृथक्त्वं?
सर्वत्र।
संयोगः?
संयोगः इदानीं मूर्त विभूति
आकाशे संयोगः वर्तते, आकाशः अपि चषकः तयोः संयोगः, घटः अपि तत्र आकाशः तयोः संयोगः वर्तते, अतः संयोगः अपि सर्वत्र वर्तते, विभागः अपि सर्वत्र
सर्वत्र
वर्तते। अतः नवसु द्रव्येषु
वर्तते
एते पञ्चगुणाः, पञ्चगुणाः गुणा भवन्ति इति कृत्वा ते गुणाः साधारणगुणाः इति प्रसिद्धाः। तर्हि तत्र सङ्ख्या इति आरभ्य, तत्र सङ्ख्या इति आरभ्य
विभागः पर्यन्तं वा?
पर्यन्तं
सङ्ख्या
तावत्
स्पर्श,
न न स्पर्श,
सङ्ख्या परिमाण पृथक्
पृथक्त्व
संयोग विभाग
विभागः इति तावत् समीचीनं भगिनि। अतः एते गुणाः साधारणगुणाः इति प्रसिद्धाः इति अस्ति, समीचीनं, धन्यवादः। अस्तु, अग्रे तत्र नीता भगिनी अग्रे पठति वा? सुभदा भगिनी नमस्कारः।
उत्पत्तिलक्षणे द्रव्ये न गुणकर्मणोः सम्भवः, तत्र कारणत्वविचारे इदम् अस्माभिः आलोचितम् यत् कारणेन कार्योत्पत्तेः प्राक्लक्षणे भवितव्यम्,
प्राक्षणे, प्राक्षणे,
प्राक्षणे भवितव्यम्। वैशाखक्षणे घटोत्पत्तिश्चेत् चैत्रक्षणे सर्वाणि घटकारणानि साक्षात् परम्परासम्बन्धैः कपाले सन्निहितानि भवन्ति। अयं च नियमः सर्वविधेयकारणत्वे आलोचनीयः। तत् वक्ष्यमाणं समवायिकारणं वा भवेत् असमवायिकारणं वा तथा सर्वभावजन्यान् प्रति द्रव्यम् एव समवायिकारणम् इति सङ्ख्यादिगुणानाम् अपि उत्पत्स्यमानानां द्रव्यम् एव समवायिकारणम् उत्पत्तिक्षणे द्रव्ये न गुणकर्मणः संभवः न गुणकर्मणोः संभवः इति अस्ति
तत्र षष्ठी कर्मणोः
षष्ठी षष्ठी द्विवचनं
द्विवचनं समीचीनं नाम उत्पत्तिक्षणे उत्पत्तिक्षणे नाम
तत् यदा उत्पत्तिः भवति तत्
हा नाम तत्र यदा वयं चिन्तयामः तत्र घटः इति स्वीकुर्मः घटः इति यस्य उत्पत्तिः भवति नाम अनित्यद्रव्यम् एव खलु नित्यद्रव्यस्य उत्पत्तिः नास्ति अनित्यद्रव्यं किमपि स्वीकुर्मः नाम घटः यदा घटस्य निर्माणं भवति तस्मिन् क्षणे निर्माणक्षणे उत्पत्तिक्षणे द्रव्ये घटे तत्र गुण अपि कर्मणः सम्भवः नास्ति नाम तत्र तस्मिन् क्षणे वयं तत्र घटः इति रक्तघटः इति न वक्तुं शक्नुमः उत्पत्तिक्षणे गुणः तस्मिन् द्रव्ये स तद्द्रव्यं निर्गुणम् निष्क्रिया रूप भवति निष्क्रियं भवति इति तत्र गुणः तस्मिन् न वर्तते कर्म अपि तस्मिन् न वर्तते कदा उत्पत्तिक्षणे इति इदानीं पश्यामः किमर्थम् इति
निष्क्रिय इति
तस्मिन् क्षणे केवलं तस्मिन् क्षणे
तत्र कारणत्वविचारे इदम् अस्माभिः आलोचितं तत्र कारणत्वविचारे तत् किमर्थम् इति अस्ति इदं तत्र कारणत्वविचारे तत् किमर्थम् अस्ति इति विचारे
न तत्र न इदानीं तस्य कारणम् इति नास्ति केवलं कारणम् अपि कार्यम् इति पूर्वं वयम् आलोचितवन्तः कस्य कारणं भवति इति आलोचनं चर्चा पूर्वा जाता खलु तदा
यत् कारणेन कार्योत्पत्तेः प्राक् क्षणे भवितव्यम्
तत्र किम् आलोचितम् अस्माभिः यत्
कारणेन कार्योत्पत्तेः प्राक्षणे भवितव्यम्
इदानीं किमपि तत्र घटः इति स्वीकुर्मः घटः इति कार्यं घटस्य कारणं किमपि स्वीकुर्मः उदाहरणार्थं किं स्वीकुर्मः घटस्य कारणम्
घटस्य कारणम् इत्युक्ते तत्र दण्डः
दण्डः अस्तु दण्डः इति स्वीकरोतु तर्हि दण्डः घटस्य कारणम् इति यदि वक्तुम् इच्छामः तर्हि तत्र निकषत्रयम् अस्ति किं किम् अस्ति
तत् कार्योत्पत्ते प्राग् भवेत् तत्र कार्योत्पत्ते प्राग् भवेत् सर्वदा भवेत् इति कार्योत्पत्ते प्राक् सर्वदा भवेत् अनन्तरम् इतोपि एकमस्ति
नाम कार्याधिकरणे अधिकरणे कारणं प्राक्षणे भवेत्
प्राक्षणे भवेत्
सर्वदा भवेत्
इतोपि एकमस्ति खलु
कार्योत्पत्तेः पूर्वक्षणं भवेत्
पूर्वक्षणे भवेत् कार्याधिकरणे भवेत् कार्याधिकरणे भवेत् समानाधिकरणं भवेत् सर्वदा भवेत् सर्वदा नाम यत्र यत्र कार्यस्य उत्पत्तिः भवति तत्र तत्र कार्यकरणम् इति यत् चिन्तयामः तद् तत्र भवेत् अपि कार्यस्य तस्य उत्पत्तेः पूर्वक्षणं भवेत्, अधिकरणे भवेत्, सर्वदा भवेत्, पूर्वक्षणे भवेत् इति निकषत्रयं खलु. समान असामानाधिकरण्यं कारणस्य कार्यस्य तयोः समानाधिकरण्यं भवेत् इति, समान अधिकरणं भवेत् इति. तर्हि तेषु एकनिषनिकषः अस्ति, कार्योत्पत्तेः प्राक्षणे कारणेन भवितव्यं. कुत्र? अधिकरणे, कार्यस्य
अधिकरणे
कारणं भवेत् इति, पूर्वक्षणे. प्राक्षणे नाम पूर्वक्षणे कारणेन भवितव्यं नाम कारणं तत्र भवेत् इति. अग्रे
आलोचितं तद्दृश्य
वयं जानीमः, वयं तस्मिन् विषये आलोचितवन्तः, एतत् समीचीनम् इति. इदानीम् अग्रे
वैशाखक्षणे घटोत्पत्ति चेत् चैत्रक्षणे सर्वाणि घटकारणानि साक्षात् परम्परासम्बन्धैः कपाले सन्निहितानि भवन्ति. तत्र वैशाखक्षणे, तत्र वैशाख इति घटस्य निर्माण क्षणमस्ति, घटस्य निर्माणक्षण यदि अस्ति चेत् वैशाखक्षणे घटोत्पत्ति भवेत् चेत् चैत्रक्षणे सर्वाणि घटकारणानि, तत्र चैत्र इति आदौ आगच्छति, तत् वैशाखक्षणे घटोत्पत्ति भवति,
प्राक् आगच्छति
प्राक् चैत्र अस्ति, तत् तस्मिन् समये चैत्रक्षणे सर्वाणि घटकारणानि साक्षात् परम्परासम्बन्धैः कपाले सन्निहितानि भवति. घट उत्पादनस्य यानि कारणानि सन्ति तानि कारणानि प्राक् घट उत्पत्ति
प्राक्षणे
परम्परासम्बन्धैः कपाले, तत् कपाले घटनिर्माणस्य कारण घटस्य कारणम्
एकम् अस्ति, अधिकरणं
घटस्य अधिकरणं कपाल इति अस्ति, तस्मिन् तानि सर्वाणि कारणानि सन्निहाति इत्युक्ते समवेतानि भवन्ति इति.
हा उत्तमं भगिनि, ते सर्वे तानि कारणानि सर्वाणि तत्र भवन्ति, यतोहि एतदेव निकषः अस्ति. तत्र प्राक्षणे नास्ति चेत् कारणम् इति न भवितुम् अर्हति, किन्तु घटस्य उत्पत्तिः अभवत् तर्हि पूर्वक्षणे सर्वाणि कारणानि, एकम् इति कारणं नास्ति खलु, अनेकानि कारणानि सन्ति. तत्र दण्डस्य आवश्यकता अस्ति, चक्रस्य आवश्यकता, जलस्य आवश्यकता, कुलालः, कपालः, अतः तत्र अनेककारणानि सन्ति, किन्तु तानि सर्वाणि तत्र प्राक्षणे तत्र भवन्ति. तत्र केनापि सम्बन्धेन वयं तत्र सर्वदा समवायसम्बन्धः इति किमपि न वक्तुं शक्नुमः, किन्तु परम्परासम्बन्धेन ते सर्वे प्रत्येकस्य सम्बन्धः केनापि सम्बन्धेन कपाले अधिकरणे अस्ति एव. अतः एव
अयञ्च नियमः सर्वविधे कारणत्वे आलोचनीयः. तत्र उत्पत्तिक्षणे तस्य प्राक्षणे सर्वविधे कारणत्वे, तत् यानि कारणानि सन्ति तत् तानि सर्वाणि कारणानि उत्पत्ते प्राक्षणे भवेत् एव इति.
भवेदेव खलु, भवेत् एव इति वयं जानीमः खलु.
तत् वक्ष्यमाणं समवायिकारणं वा भवेत् असमवायिकारणं वा भवेत् इत्युक्ते तत् यत् कारण समवायिकारणं भवेत् वा असमवायिकारणं भवेत्, किन्तु यानि कारणानि सन्ति तानि सर्वाणि प्राक्षणे तु भवन्ति एव इति.
यदि न भवन्ति तत्र कार्यं न भवति,
कार्यं न भवति.
इदानीम् उदाहरणं स्वीकुर्मः, तत्र इदानीं तत्र घटः इति स्वीकुर्मः, घटः इति स्वीकुर्मः, घटः इति अस्माकं कार्यं, घटः इति कार्यं नास्ति, क्षम्यतां, घटः इति स्वीकुर्मः, घटे गुणः वर्तते, एषः घटः रक्तघटः इति चिन्तयतु, तर्हि तत्र रक्तवर्णः अस्ति, रक्तरूपम् अस्ति घटे. तर्हि वयं दृष्टवन्तः समवायिकारणं नाम किम् अस्ति.
समवायिकारणम् इत्युक्ते यत् अधेयः वर्तते तत्र, तत् समवायः, तत् अधेयः समवायः अधिकरणे, अधिकरण इति समवायी अस्ति, तत् समवायिसम्बन्धेन वर्तते.
वयं दृष्टवन्तः खलु तत्र समवायिकारणं नाम घटः तस्मिन् तादात्म्येन स्थित्वा रूपं तत्र कार्यं समवायसम्बन्धेन जनयति खलु. तत्र कारणम् अधिकरणं कार्यं तत्र अत्र समवायसम्बन्धः भवेत्, अपि अत्र तादात्म्यसम्बन्धः भवेत्, तदा एतत् कारणं भवति समवायिकारणम्. समवायिकारणं किमस्ति, स्वस्मिन् तादात्म्यसम्बन्धेन समवायसम्बन्धेन कार्यं जनयति,
समवायसम्बन्धेन कार्यं जनयति,
कार्यं जनयति इति समवायिकारणस्य लक्षणं. तर्हि घटः, घटे रूपमस्ति, रक्तरूपम् इति अस्ति. रक्तरूपम् इति कीदृशपदार्थः?
गुण.
तर्हि गुणः द्रव्ये केन सम्बन्धेन भवति, आश्रये? रूपम् इति गुणः घटे केन सम्बन्धेन अस्ति?
समवायसम्बन्धेन.
नीता भगिनी, न श्रूयते?
इदानीं स्पष्टं.
खलु, कः रूपं केन सम्बन्धेन घटे अस्ति?
रूपम् इति गुणः, गुणः द्रव्ये समवायसम्बन्धेन वर्तते.
वर्तते, अपि घटः स्वस्मिन् तादात्म्यसम्बन्धेन वर्तते. तर्हि घटः रूपस्य समवायिकारणम् अभवत् खलु. समीचीनं खलु एतावत्.
समवेदम् अपि एकवारं वदतु महोदय.
हा, नाम रूपं समवे, तत्र रूपं घटसमवेतम् अस्ति. रूपं समवेतम् इति अस्ति. अस्तु, इदानीं घटः कारणमस्ति खलु, रूपं प्रति कारणमस्ति खलु. तर्हि इदानीं तत्र घटस्य उत्पत्तिः इदानीम् अभवत्. घटः पूर्वं घटः नासीत्, घटः नास्ति, इदानीं घटः अस्ति. किं तस्मिन् क्षणे रूपमपि भवति वा?
तस्मिन् क्षणे न भवति.
किमर्थम्?
उत्पत्तिक्षणे तत्र द्रव्ये, उत्पत्तिक्षणे द्रव्ये गुणः न सम्भवति तत्र.
किमर्थं? समीचीनं. किमर्थम् इति किञ्चित् विवृणोतु. समीचीनमेव.
तत्र उत्पत्तिक्षणे वा प्राक् तत्र कारणम् इति वर्तते, किन्तु गुणः
इदानीं तत्र कार्यं किम् इति वदतु, अपि कारणं किम् इति वदतु.
तत् कार्यमस्ति घटनिर्माणम्.
न कार्यं न, इदानीं रूपं घटे वर्तते वा इति. तर्हि रूपम् इति कार्यम् इति चिन्तयतु. रूपम् इति कार्यं,
रूपम् इति कार्यम्. अस्तु, तत्
तस्य कारणं किमस्ति, रूपस्य कारणं किमस्ति, समवायिकारणं किमस्ति रूपस्य?
रूपस्य समवायिकारणं रूपम् इति यदि यदि कार्यमस्ति तत् तस्य समवायिकारणं घट अस्ति, तस्य
खलु घटः अधिकरणम् अस्ति घटः। इदानीं तत्र वैशाखक्षणे घटस्य उत्पत्तिः, वैशाखक्षणे घटस्य उत्पत्तिः, चैत्रक्षणे घटः नास्ति खलु?
आम् आम्,
चैत्रक्षणे घटः नास्ति, वैशाखक्षणे घटः अस्ति। इदानीं रूपम् इति घटस्य रूपं प्रति घटः कारणम्। इदानीं रूपं यदि वैशाखक्षणे आसीत् तर्हि रूपस्य कारणं पूर्वक्षणे, रूपस्य सर्वाणि कारणानि पूर्वस्मिन् क्षणे भवेयुः खलु?
आम् आम्।
तर्हि रूपस्य कारणेषु अन्यतमः अस्ति घटः खलु?
आम्।
तर्हि घटः अपि पूर्वस्मिन् क्षणे भवेत्। घटः पूर्वस्मिन् क्षणे नास्ति खलु? अस्तु अस्तु, तर्हि भगिनी तत्र किं करोतु, एकनिमिषः तत्र अत्रैव तत्र किम्, ओहो अस्तु अस्तु, तत्र किम् अन्यत् किमपि आसीत्। हा इदानीं हा एतत् चित्रं दृष्ट्वा इदानीं तत्र पश्यामः, तत्र वैशाखक्षणः अस्मिन् क्षणे घटस्य उत्पत्तिः
घटोत्पत्तिः भवति
भवति, अस्तु, अस्मिन् क्षणे घटस्य उत्पत्तिः, पूर्वक्षणे घटः नास्ति, चैत्रक्षणे घटः नास्ति
नास्ति,
वैशाखक्षणे घटः अस्ति। इदानीं रूपम् इति गुणः इति स्वीकरोतु, घटस्य घटस्य गुण किम कोऽपि गुणः रूपम् इति चिन्तयतु। इदानीं गुणं प्रति कारणमस्ति घटः खलु? तर्हि तत्र तत्र घटः अस्मिन् क्षणे अस्ति, अत्र घटः नास्ति अस्मिन् क्षणे खलु?
आम् आम्,
अस्मिन् क्षणे घटः अस्ति,
अग्रे
अग्रिमे क्षणे अपि घटः अस्ति, अस्तु
आम् आम्,
अस्य अनन्तरं घटः वर्तते, अस्तु
वर्तते।
इदानीं प्रश्नः, गुणः कदा वर्तते? इदानीं गुणः अस्मिन् क्षणे वर्तते वा, चैत्रक्षणे गुणः वर्तते वा, रूपम्
अस्मिन् क्षणे पूर्व प्राक् गुणः न वर्तते,
अस्तु, यतोहि घटः एव नास्ति, तर्हि कथं वा गुणः भवेत्? इदानीं घटस्य उत्पत्तिः अस्मिन् क्षणे भवति, तस्मिन् क्षणे एव रूपमपि भवति वा इति प्रश्नः। अस्मिन् क्षणे अपि रूपं भवति वा इति प्रश्नः। तर्हि एतत् समीचीनं वा अथवा रूपं नास्ति इति
प्रश्नः, प्रश्नः अवगतं, किन्तु तस्मिन् क्षणे यदा निर्मितिः भवति तस्मिन् क्षणे एव तस्य वर्णः वा रूपम् आगच्छति एव न
इति अस्माकं लौकिकचिन्तनं, सत्यं, हा, किन्तु कारणं कार्यम् इति यदि चिन्तयामः तदा किं भवति, क्षणं क्षणं क्षणशः वयं पश्यामः खलु, तर्हि तर्हि अत्र एतस्य उत्पत्तिः कदा भवति इति प्रश्नः खलु, रूपस्य उत्पत्तिः, रूपम् इति कार्यमस्ति, रूपस्य उत्पत्तिः कदा भवति इत्युक्ते तस्य रूपस्य कारणानि पूर्वक्षणे भवेयुः खलु। रूपस्य उत्पत्तिः रूपम् इदानीम् अस्ति चेत् तस्य रूपस्य सर्वाणि कारणानि पूर्वमेव भवेयुः खलु,
आम्,
पूर्वक्षणे एव भवेयुः खलु,
आम् आम्।
यदि रूपस्य उत्पत्तिः तत्र चैत्रक्षणे न भवितुम् अर्हति खलु,
नो नो,
वैशाखक्षणे भवति न वा इति प्रश्नः अस्माकम्। यदि वैशाखक्षणे रूपस्य उत्पत्तिः भवति तर्हि रूपस्य सर्वाणि कारणानि पूर्वस्मिन् क्षणे भवेयुः खलु समीचीनम्
आम् आम्
तर्हि रूपस्य सर्वाणि कारणानि चैत्रक्षणे भवेयुः खलु
रूपस्य सर्वाणि कारणानि चैत्रक्षणे भवेयुः आम्
सर्वाणि कारणानि सन्ति वा चैत्रक्षणे रूपस्य
सर्वाणि कारणानि भवेयुः तत् कारणम् इति वदामः चेत् भवेत् एव न
किन्तु रूपस्य कारणेषु रूपस्य कारणानि अनेकानि सन्ति तेषु एकं कारणं वदतु रूपस्य समवायिकारणं किम् अस्ति
रूपस्य कारणानि
एकं कारणम् अस्ति घटः खलु
हा
खलु
हा एकं कारणं घटः अस्ति
घटः यतोहि तत्र रूपम् इति गुणः घटनिष्ठगुणः अस्ति रूपं खलु तस्यैव विवरण तस्यैव चर्चा भवति खलु इदानीं तर्हि रूपनि तत्र घटनिष्ठरूपं घटनिष्ठरक्तरूपम् इति एव खलु तस्यैव चर्चा
प्राक् नास्ति
रूपस्य कारणं समवायिकारणं घटः अस्ति घटः पूर्वक्षणे नास्ति खलु
नास्ति
यदि पूर्वक्षणे घटः नास्ति तर्हि रूपम् अस्मिन् क्षणे न भवितुम् अर्हति खलु
न
अतः अस्मिन् क्षणे रूपं नास्ति अग्रिमे क्षणे रूपं भवितुम् अर्हति किन्तु तस्मिन्नेव क्षणे रूपः न भवितुम् अर्हति वैशाखक्षणे रूप
अन्यानि कारणानि चैत्रक्षणे भवन्ति परन्तु तत्र घटः इति रूपस्य कारणं तत् चैत्रक्षणे नास्ति
अतः रूपं वैशाखक्षणे न भवितुम् अर्हति अवगतम्
इदानीं स्पष्टम्
अस्तु अस्तु समीचीनम् इदानीम् अन्य कोऽपि वदेत् समीचीनं भगिनि अस्तु मृणग्नि भगिनि
धन्यवादः
धन्यवादः भगिनि मृणग्नि भगिनि स्वशब्दैः वदतु भगिनि तर्हि तत्र घटस्य उत्पत्तिक्षणे किमर्थं तस्मिन् रूपं नास्ति इति
घटस्य उत्पत्तिक्षणे रूपं नास्ति इति अस्माकं चिन्तनं यदि अस्ति इति वयं चिन्तयामः तर्हि रूपं समवायकारणेन घटे वर्तते
न रूपस्य समवायिकारणं घटः
रूपस्य समवायिकारणं घटः तर्हि रूपं यदि वैशाखक्षणे भवेत् तर्हि तस्मात् पूर्वं चैत्रक्षणे अपि सर्वाणि कारणानि भवेयुः
उत्तमम्
एकं कारणमस्ति घट एव साक्षात् तर्हि घट अपि चैत्रक्षणे भवेत् तदा एव वयं वक्तुं शक्नुमः वैशाखक्षणे रूपं वर्तते इति अतः परन्तु घटस्य निर्माणं तु वैशाखक्षणे एव जातं चैत्रक्षणे घटः नास्ति अतः वैशाखक्षणे अपि गुणम् अर्थात् रूपं नास्ति
उत्तमं भगिनि तथैव क्रिया अपि गुणः अथवा क्रियायाः तत्र आशयः एव तत्र समवायिकरणं गुणस्य आशयः एव समवायिकरणं समवायिकरणं पूर्वस्मिन् क्षणे नास्ति इति कृत्वा गुणः वा क्रिया वा अस्मिन् क्षणे न सम्भवति तस्याः तस्य सम्भवः नास्ति अग्रिमे क्षणे तत्र ज्येष्ठक्षणे गुणस्य उत्पत्तिः वा अथवा क्रियायाः उत्पत्तिः
आचार्य अत्र क्रिया कुत्र कस्य विषये क्रिया अस्ति अत्र वैशाखक्षणे नापि क्रिया
नाम तत्र यथवत् वयं गुणस्य विषये चर्चितवन्तः तथैव क्रिया अपि क्रिया इति अपि तत्र द्रव्ये तत्र घटे घटस्य उत्पत्तिक्षणे एव क्रियापि भवति वा इत्युक्ते तत्र क्रियायाः समवायिकारणमपि घटः एव भवति यतोहि तत्र क्रिया अपि क्रियावत् क्रियाभान् तयोः सम्बन्धः कः आश्रयः क्रियावान् तत्र सम्बन्धः कः
घटः
सम्बन्धः सम्बन्धः
समवायसम्बन्धः
तर्हि घटः एव समवायिकरणं तत्रापि भवति खलु तर्हि घटे उत्पत्तिक्षणे क्रिया अपि न भवितुम् अर्हति यतोहि पूर्वस्मिन् क्षणे घटः नास्ति अतः न गुणः न अपि क्रिया इति समीचीनम् गुणोत्पत्तिः अग्रिमे क्षणे भवति ज्येष्ठक्षणे किन्तु वैशाखक्षणे सः गुणः अथवा क्रिया वा नास्ति इति आगतम् अस्तु समीचीनं अस्तु इदानीम् अन्ते तत्र मृणालिनी भगिनी भवती एव इदानीं तत्र तथा इति आरभ्य
तथा सर्वभावजन्यजन्यान् प्रति सर्वभावजन्यान् प्रति द्रव्यमेव समवायिकारणमिति सङ्ख्यादिगुणानामपि उत्पत्स्यमानानां द्रव्यमेव समवायिकारणम् सर्वभावजन्यान् प्रति द्रव्यमेव समवायिकारणमिति भावजन्यान् भाव अर्थः किमिति अत्र
भावपदार्थः तत्र समवायिकारणम् इति तत्र पूर्वं दृष्टवन्तः खलु तत्र समवायिकारणं तर्हि तत्र भगिनी एकनिमिषः तत्र पूर्वस्मिन् पूर्वं पुटं एतत् पुटं पश्यतु तर्हि तत्र अथ आरभ्य एकवारं पठतु भगिनि तथा च घटस्य इति
तथा च घटस्य रूपस्य क्रियायाश्च समवायिने उत्पत्तिः कपालरूपे द्रव्ये घटरूपद्रव्ये कन्दुकरूपद्रव्ये एव च भवतीति सर्वस्यापि कार्यस्य समवायसम्बन्धेन उत्पत्तिः द्रव्ये एव भवति इति आगतम्
खलु तर्हि तस्मिन् पुटे उदाहरणं यानि सन्ति तत्र किं भवति समवायिकारणं सर्वदा द्रव्यमेव अस्ति इति पठितवन्तः खलु
न अवगतमाचार्य किं
तत्र समवायिकारणं सर्वदा द्रव्यमेव भवति इति
द्रव्यमेव भवति
तत्र क्रिया वा द्रव्यं वा गुणः वा यदा समवायसम्बन्धेन भवति तर्हि तत्र आश्रयतु द्रव्यमेव भवति तर्हि आश्रयः द्रव्यमेव अस्ति इति कृत्वा सर्वदा समवायिकारणं द्रव्यमेव भवति खलु तत्र मध्ये अवधिः आसीत् इति कृत्वा प्रायशः सम्यक् स्मरणं नास्ति इति मन्ये चिन्ता मास्तु भगिनि किन्तु तत्र द्रव्यमेव समवायिकारणं भावपदार्थानाम् अभावस्य इति अभावस्य समवायिकारणं न भवति किन्तु द्रव्यं न भवति किन्तु भावपदार्थस्य नाम कर्मः इति तेषां द्रव्यस्य वा गुणस्य वा तत्र समवायिकारणं द्रव्यमेव भवति इति
भाव अर्थात् अत्र यत्र क्रिया वर्तते गुणं वर्तते
तादृशं भावपदार्थः तत्र अभावः विहाय भावपदार्थः अपि जन्यान् नाम अनित्य आकाशः इति नित्यपदार्थः तस्य कारणमेव नास्ति खलु यस्य उत्पत्तिः भवति जन्यः भवति तेषामेव तत्र तस्य एव तत्र कारणं किम् इति प्रश्नः उदेति अत्र भावपदार्थः जन्यपदार्थः नाम अनित्यजन्य अनित्यपदार्थः भावपदार्थः सर्वतादृशपदार्थान् प्रति सर्वदा द्रव्यमेव समवायिकारणम् इति वयं जानीमः. तर्हि तेन किं भवति? सङ्ख्यादिगुणानां नाम सङ्ख्या परिमाणं पृथक्त्वं विभागः इति पञ्चगुणानाम् अपि समवायिकारणं किं भवति?
द्रव्यमेव
उत्पत्स्यमानानां नाम तेषाम् उत्पत्ति तत्र गुणानाम् उत्पत्स्यमानानां गुणानां नाम उत्पत्स्यमानः गुणः यस्य गुणस्य उत्पत्तिः भविष्यति उत्पत्स्यमानः तत्र शानज् खलु उत्पत्स्यमानानां गुणानां सङ्ख्यादिगुणानां समवायिकारणं द्रव्यमेव. अतः तत्र सर्वदा द्रव्यमेव तत्र समवायिकारणं भवति. अतः किम् आगतं तर्हि? सङ्ख्यादिगुणसङ्ख्या परिमाणं पृथक्त्वं संयोगः विभागः किं भवति? उत्पत्तिक्षणे घटस्य उत्पत्तिक्षणे सङ्ख्याघटे सङ्ख्या इति गुणः न भवति, परिमाणम् इति गुणः न भवति, संयोगः इति गुणः न भवति, पृथक्त्वम् इति गुणः न भवति, विभागः इति गुणः न भवति घटे उत्पत्तिक्षणे खलु. समीचीनम्.
तर्हि सर्वेषां गुणानां द्रव्यमेव समवायिकारणम्
इति. हा, तर्हि समवायिकारणम् इति कृत्वा उत्पत्तिक्षणे तत्र एते गुणाः तस्मिन् न भवन्ति. अस्तु, अग्रिमे पुटे
वदामि वा? एवं प्रति द्रव्योत्पत्तिक्षणे एव तत्र रूपादीनां विशेषगुणानाम् एकत्वादीनां सामान्यगुणानाम् उत्पत्तिः न शक्या वक्तुम्. आं, द्रव्योत्पत्तिक्षणे एव तत्र रूपादीनां विशेषगुणानाम् एकत्वादीनां सामान्यगुणानाम् उत्पत्तिः न शक्यं वक्तुम्. तर्हि तस्मिन् क्षणे तेषाम् उत्पत्तिः भवति इति नास्ति इति?
उत्पत्तिक्षणे एव ते सन्ति, तस्मिन्नेव क्षणे एतेषामपि उत्पत्तिः भवति इति न वक्तुं शक्नुमः खलु. नाम तस्मिन्नेव क्षणे रूपमपि अस्ति, घटस्य उत्पत्तिक्षणे एव रूपमपि अस्ति इति न वक्तुं शक्नुमः.
तर्हि
तत्र विभागः कृतं रूपादीनां विशेषगुणानाम् एकत्वादीनां सामान्यगुणानाम्. अतः कः?
एकत्वादीनां सामान्यगुणानाम् रूपरसगन्ध इति विशेषगुणाः वा रूपादीनां?
किमर्थम्? किमर्थम्? गुणः तु सर्वदा समवायसम्बन्धेन एव समवायिकारणे भवति, द्रव्ये भवति. किन्तु पूर्वस्मिन् पुटे वयं पठितवन्तः खलु, तत्र नरसिंहगडे महोदय पठितवान् खलु साधारणगुणाः, यतोहि नवसु द्रव्येषु न तत्र चन्द्रमती भगिनी पठितवती. हा, साधारणगुणाः इति प्रसिद्धाः, सामान्यगुणाः इति प्रसिद्धाः, यतोहि नवसु द्रव्येषु ते वर्तन्ते, सङ्ख्या इत्यादिषु इत्यादि. किन्तु रूप रस इति नवसु द्रव्येषु भवन्ति वा?
न.
अतः द्विशेषगुण इति नामकरणं तावदेव. अतः रूपादीनां विशेषगुणानाम् अपि एकत्वादि सङ्ख्या इत्यादि पृथक्त्वम् इत्यादि परिमाणम् इत्यादीनां सामान्यगुणानामपि उत्पत्तिः तस्मिन्नेव क्षणे न शक्य वक्तुं शक्या उत्पत्तिः स्त्रीलिङ्गे अस्ति इति कृत्वा उत्पत्तिः न शक्य वक्तुम् अग्रे
तथात्वे द्रव्यस्य गुणानां च युगपद उत्पत्त्या द्रव्यं गुणोत्पत्तिक्षणपूर्वक्षणवृत्ति न स्यात् तर्हि तद्गुणान् प्रति कारणमपि अग्रे अपि पठनि
तावत् पर्यन्तं पठतु भगिनि वदतु किम् अवगतम् इति तथा इति चिन्तने सतिसप्तमे तथा अस्ति इति इत्युक्ते
द्रव्यस्य गुणान् च युगपदुत्पत्त्या द्रव्यं गुणोत्पत्तिक्षणपूर्वक्षणवृत्ति न स्यात्
तत्र द्रव्यस्य गुणानां च इति तत्र समूहः खलु च इति समूहः द्रव्यस्य गुणानां यत्र समूहः समानविभक्तिः भवेत् खलु तर्हि द्रव्यस्य गुणानां तत्र अनेके गुणाः सन्ति द्रव्यमपि अस्ति च युगपत् उत्पत्त्या युगपत् इत्युक्ते समानसमये उत्पत्तिः युगपत् उत्पत्तिः नाम समानसमये उत्पत्तिः यदि भवेत् यदि द्रव्यस्य समवायिकारणस्य अपि गुणानाम् अपि गुणानां समवायिकारणस्य नाम घटः इति उदाहरणं स्वीकुर्मः घटे तत्र एकत्वम् इति सङ्ख्या रूपं रक्तरूपम् इत्यादि गुणान् यदि स्वीकुर्मः तर्हि यदि तेषां समानकाले उत्पत्तिः भवति तदा किं भवति उत्पत्त्या किं भवति द्रव्यं किं भवति
क्षणपूर्वक्षणवृत्ति न स्यात्
तर्हि तदा घटं घटः स्थितिः कीदृशी भवति
तस्मिन् विद्यमानं गुणं पूर्वक्षणे न स्यात् इति
न द्रव्यं कीदृशं भवति द्रव्यं गुण उत्पत्तिक्षण गुणस्य उत्पत्तिक्षणं यत् अस्ति तस्य पूर्वक्षणवृत्ति द्रव्यं नास्ति नाम गुणस्य उत्पत्तिक्षणात् पूर्वक्षणे द्रव्यं नास्ति द्रव्यं न वर्तते खलु द्रव्यं
पूर्वं द्रव्यं न वर्तते इति वा
गुणस्य उत्पत्तिक्षणस्य पूर्वक्षणे द्रव्यं न वर्तते यतोहि द्वयोः एकसमानकाले उत्पत्तिः इति चिन्तनं खलु यदि वयं चिन्तयामः समानकाले तयोः तेषाम् उत्पत्तिः भवति तदा किम् आगतं द्रव्यं गुणस्य उत्पत्तेः पूर्वक्षणे न वर्तते खलु न वर्तते नाम द्रव्यस्य पूर्वक्षणवृत्ति नास्ति पूर्वक्षणवृत्ति नास्ति कस्मात् पूर्वक्षणवृत्ति गुणोत्पत्ति क्षणपूर्वक्षणवृत्ति नास्ति तस्मिन् क्षणे तद्द्रव्यं न वर्तते इति भवति खलु तदा किं भवति
न स्यात् तर्हि
चेत् तर्हि
न स्यात् तर्हि तत् गुणान् प्रति कारणमपि न स्यात् इति
तद् पूर्वस्मिन् क्षणे तद् नास्ति चेत् तद् गुणान् प्रति कारणमपि न स्यात् तर्हि खलु अवगतं वा
तत् इति पदेन किं द्रव्यम् अत्र
द्रव्यं तत् इत्युक्ते द्रव्यं तद् द्रव्यं गुणान् प्रति कारणमपि न स्यात् तर्हि खलु पूर्वस्मिन् क्षणे नास्ति तत् कारणं न भवितुम् अर्हति खलु यत् भवती उक्तवती तदेव अत्र लिखितं गुणोत्पत्तिक्षणपूर्वक्षणवृत्तिः न स्यात् न स्यात् चेत् किम् आगतं तर्हि तद् द्रव्यं गुणान् प्रति कारणमपि न स्यात् अग्रे अतः
तस्य कारणत्वरक्षायै उत्पन्नं द्रव्यं क्षणमेकं निर्गुणं निष्क्रियं च तिष्ठति इति नियमः अभ्युपगम्यते
तर्हि तस्य इत्युक्ते समवायिकारणं द्रव्यं यदस्ति तस्य कारणत्वरक्षायै रक्षणार्थं कारणम् अस्ति जानीमः खलु तर्हि कारणत्वस्य रक्षणं करणीयं खलु रक्षणार्थं किम् आगतं कः नियमः आगच्छति तर्हि उत्पन्नं द्रव्यं घटः इत्यादि क्षणमेकम् एकं क्षणम्
उत्पत्तिक्षणे निर्गुणं निष्क्रियं च तिष्ठति
इति आगतं खलु इति नियमः अभ्युपगम्यते इति अस्ति अस्तु समीचीनं
तस्मात् प्रथमक्षणे कार्यं द्रव्यमेव जायते प्रथमक्षणे कार्यं द्रव्यमेव जायते तादात्म्यसमवायिकारणसमवधानेन द्वितीयक्षणे गुणोत्पत्तिः स्पष्टोऽपि अर्थः चित्रेण बोध्यते
इति अतः तत्र चित्रं यदस्ति तत्र अग्रिमे वर्गे तस्य विवरणं कुर्मः किन्तु विषयः स्पष्टः स्यात् इति मन्ये नाम उत्पत्तिक्षणे निर्गुणं निष्क्रियं तिष्ठति द्रव्यम् इति अस्तु समयोऽपि जातः तर्हि विरमाम धन्यवादः नमस्कारः अग्रिमे वर्गे मिलामः तर्हि नमस्कारः
धन्यवादः
धन्यवादः नमस्कारः धन्यवादः